तथापि तव भक्तिवशान् मुनीश कर्तुं तव विगत शक्तिरपि प्रवृत्तः प्रीत्यात्मवीर्यमविचार्य मृगो मृगेन्द्रम् नाभ्येति किं निजशिशौ परिपालयेत्।